नमस्कारः शैलजा भगिनी।
पापाजी नमस्कारः।
पापाजी अस्ति वा? तत्र नास्ति अस्ति अत्र।
हा हा ओके राइट भगिनी। यस यस इज इन देयर।
आरम्भं करोमि वा भगिनि?
हा करोतु करोतु।
ॐ गणेशाय नमः। ॐ वागस्ताविव संवत्तौ वागस्तः प्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ। ॐ येनाक्षरसमाह्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः भगिनि।
धन्यवादः भगिनि। अस्तु अद्य एकचत्वारिंशत्तमे पुटे वा अभ्यासपुस्तके
आं भगिनि एकचत्वारिंशत् आरम्भम्
इदानीं हा पठतु भगिनि 11.3 सुधा भगिनि।
आं भगिनि इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु।
अस्तु करोतु भगिनि।
कथां एकवारं पठामि वा?
हा कथा कथा भू इत्युक्ते तव तु रूप भूतकालरूपाणि इत्युक्ते तव तु रूपाणि योजयित्वा पुनः
लकारः
नास्ति
नास्ति
तदेव एकवारं प्रयत्नं करोतु।
कश्चित् बालकः भवेत् भूतवान् कश्चित् बालकः भूतवान् तस्य नाम सुधीरः। एकदा सुधीरः नगरं गतवान् शिरस्त्राणि क्रीणीतवान्
क्रीतवान् वा क्रीणीत्
क्रीणाति क्रीतवान् ऐ थिङ्क्
क्रीतवान् वा
क्रीणाति
क्रीतवान् क्रीणा क्रीणीतवान् तु अहं न अग्रिम पठतु भगिनि अहम् एकवारम्
आं भगिनि तेषां विक्रणय विक्रयणार्थं ग्रामं गतवान् मार्गे अरण्यं भूतवत् मार्गे अरण्यं
आसीत्
आसीत् ओ ओके आसीत् आसीत्
तिङ् रूपम् अस्ति
भूतवत् इति सम्यक् वा?
हा भूतवत् अपि सम्यक्। किमर्थम् आरण्यं तु नपुंसकलिङ्गं भूतवत्
मार्गे आरण्यं भूतवत् सुधीरः श्रान्तः भूतवान्
क्रीडितवान्
भवति सुधीरः श्रान्तः ओ क्रीणितवान्
क्रीडितवान्
क्रीडितवान् कुत्र
शिरस्त्राणि क्रीडितवान् नो क्रीडितवान् न
क्रीडितवान् क्रीडदातु
अधुना तु धातु किं
क्रीणाति
क्रियादि
क्रियादि
क्रियादिगणे इत्युक्ते क्रियादिगणे
गृह्णाति इति गृहीतवान् अस्ति
भगिनि क्रीतवान्
क्रीतवान् क्रीतवान् ओके
इत्युक्ते क्रियादिगणे क्री धातु सो धातु
तव तु क्रीतवान् सुधीरः श्रान्तः भवति इति भूतवान्
भूतवान्
श्रान्तः भूतवान् सः वृक्षस्य अधः उपविष्टवान् शिरस्त्रपेटिकां पार्श्वे स्थापितवान् तत्र एव निद्रां कृतवान्
कृतवान् तदेव सुन्दरं शैलजा भगिनी अग्रिमं करोतु
आं भगिनि तत्र केचन वानराः भूतवन्ति वन् मिनिट् भगिनि ऐं चेकिङ्ग् इट्
भूतवत् पुंलिङ्ग् अस्ति चेत् भूतवान् एकवचनम् अस्ति चेत् पुंलिङ्ग् भूतवान्
यः पे वानराः अस्ति चेत्
न भगिनि सर्वाणि रूपाणि एकवारं स्मारयतु अस्तु
भवती भूधातु अस्ति बट् लेकिन् भूतकालरूपाणि न भगिनि ऐ डोण्ट् हाव् दट् वर्ड्स् हियर्
भूतवान् पुंलिङ्ग् एकवचनम् अस्ति चेत् भूतवान्
भूतवान्
तदनन्तरं स्त्रीलिङ्ग् अस्ति चेत्
भूतवती
नपुंसकलिङ्ग् अस्ति चेत्
भूतवन् नपुंसकलिङ्ग् अस्ति चेत्
वत् एव अस्तु तदनन्तरम् एकवचनम् अस्ति चेत्
एकवचनम् अस्ति चेत् नपुंसकलिङ्गं वा भगिनि
पुंलिङ्गं करोतु प्रथम तु
पुंलिङ्गं भूत पुल्लिङ्गं भूतवान् भूतवान् भूतवन्तौ भूतवन्तः
भूतवन्तः अधुना कर्तृपदं किम्
तत्र केचन वानराः सन्ति कर्तृपदं वानराः
इत्युक्ते कीदृशपदं
बहुवचनपदम् अस्ति
लिङ्गं
लिङ्गं वानराः पुल्लिङ्गशब्दः अस्ति आं भूतवन्तः आं भगिनि
नमस्ते कविता भगिनी अस्तु चत्वारिंशत् तमे पुटे एकं कथा अस्ति अभ्यासपुस्तके श्रूयते वा भगिनि अस्तु चत्वारिंशत् तमे पुटे एक कथा
नमस्कारः भगिनि
नमस्ते भगिनि चत्वारिंशत् तमे पुटे एका कथा अस्ति कथा तु तिङन्तपदानि रूपाणि योजयित्वा अस्ति इत्युक्ते किं कथा तु तिङन्तरूपाणि योजयित्वा अस्ति किन्तु अधुना 11.3 ह्रस्व इ अभ्यासे किं दत्तं शैलजा भगिनी पुनः पठतु किं दत्तम् 11.3E.
इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु.
उपयुज्य
कथां पुनः पठतु
इत्युक्ते किम्?
यूसिङ्ग् द पास्ट् टेन्स् प्लीस् मेक् द स्टोरी अगेन्.
किन्तु कीदृश पास्ट् टेन्स्?
भूतकालरूपाणि तवतु प्रत्यय भूतकालरूपम्.
तवतु प्रत्यय योजयित्वा कथां पुनः पठतु. तवतु इत्युक्ते एकं प्रत्यय अस्ति कविता भगिनी, यथा ह्यः अहं किञ्चित् उक्तवती तस्य विषये. अस्तु, पुनः एकवारं
अष्टत्रिंशत् पुटसङ्ख्या भूतकालरूपाणि सन्ति कविता भगिनी. तवतु प्रत्यय
रूपाणि दत्तानि.
आं भगिनि, धन्यवादः.
अस्तु अस्तु, हा करोतु शैलजा भगिनी. तत्र
केचन वानराः भवन्तः
न
भूतवन्तः सोरि भूतवन्तः सुधीरस्य समीपम्
एकः वानरः
सुधीरस्य समीपम् आगतवान्.
उत्तमं.
सः पेटिकां पश्यवान्. दृश्यवान् वा भगिनि?
दृष्टवान्. पापाजी प्रणाम. बीना भगिनी नमस्ते. पापाजी, चत्वारिंशत्तमे पुटे अभ्यासपुस्तके चत्वारिंशत्तमे पुटे एका कथा अस्ति, तद्वयं पठामः. किन्तु तवतु रूपाणि योजयित्वा पुनः पठामः.
तत्र केचन वानराः सन्ति.
शैलजा भगिनी एकवारं पुनः पठतु तत्र.
आं भगिनि, ऐल् रीड् द हेडिङ्ग् आल्सो. इदानीं इट्स् 11.3E. पापाजी, इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु. वि आर् इन् सेकेण्ड् पाराग्राफ्. सो तत्र केचन वानराः भूतवन्तः. एकः वानरः सुधीरस्य समीपम् आगतवान्. सः पेटिकां दृष्टवान्. एकं शिरस्त्रं
उद्घाटय.
सोरि भगिनि, सः पेटिकां दृष्टवान्. आं भगिनि,
अन्य कोऽपि ऊहां करोतु.
उद्घाटवान् वा?
उद्घाटितवान्. उद्घाटितवान्.
आं भगिनि, उद्घाटितवान्. एकं शिरस्त्रं गृहीतवान्. शिरसि
धारितवान्.
शिरसि धारितवान्. पुनः वृक्षस्य उपरि गतवान् उपवेशितवान् उपविशतवान् उपविष्टवान्
उपविष्टवान् उपविष्टवान् उत्तमम् उत्तमम् कविता भगिनी प्रयत्न करोतु भगिनी
तो मतलब जैसा है वही पढ़ना है ना
जो है वो पढ़ना है लेकिन जो क्रियापदम है उसको तवतु रूप में लेना है एंड आई विल हेल्प यू तवतु रूपाणि सर्वाणि कुत्र दत्तानि 38 तमे पुटे
11.1 यस
38 तमे पुटे 38 तमे पुटे तवतु रूपाणि दत्तानि तवतु रूपाणि दत्तानि
ओके
हाँ प्रथमतया 38 तमे पुटे भगिनी 38 तमे पुटे एव पठतु भगिनी पठतु
ओके
भूतकाल रूपाणि
भूतकाल रूपाणि रिक्तानि स्थानानि पूरयतु पठति पुंलिंगे पठितवान् एकवचनरूपं पठितवान् बहुवचनरूपं पठितवन्तः स्त्रीलिंगे एकवचनरूपं पठितवती बहुवचनरूपं पठितवत्यः
पठितवत्यः इत्युक्ते पठितवान् पठितवन्तौ पठितवन्तः द्विवचनरूपं पठितवन्तौ तदनन्तरं पठितवन्तः स्त्रीलिङ्गे किं पठितवती पठितवत्यौ पठितवत्यः दीक्षिका भगिनी नमस्कार स्वागतम्
नमस्कार भगिनी
अद्य अधुना भवत्याः कृते अपि च कविता भगिन्याः कृते अपि च बिना भगिन्याः कृते अष्टत्रिंशत् तमे पुटे पुनः वयं भूतकालरूपाणि पठामः अष्टत्रिंशत् तमे पुटे इत्युक्ते पठितवान् पठितवन्तौ पठितवन्तः पठितवती पठितवत्यौ पठितवत्यः अग्रिमं पठतु कविता भगिनी
भगिनी ऐ हेव् अ डौट् पठति इट् हेज़् द ऋस्व इकारान्त फार् स्त्रीलिङ्ग् इफ् यू रिफर् मति शब्दवत् देन् द द्विवचन इस् मति नाट् मत्यौ सो देट् इस् द
अत्र भगिनी तव तु प्रत्ययरूपाणि भिन्नानि डिफ्रेण्ट् दे आर् नाट् थिङ्ग् दे आर् नाट् यथा अहं ह्यः उक्तवती यस्टर्डे ऐ थिङ्क् ऐ टाक्ड् अबौट् इट् ऐ एम् नाट् श्योर् इफ् ऐ टाक्ड् अबौट् इट्
या इट् हेज़् गान् बौन्सर्
हा बौन्सर् अस्तु वाट् हेप् सी तव तु आर् प्रत्ययस् यस्टर्डे रिमेम्बर् ऐ टाक्ड् अबौट् कृदन्तस् एण्ड् तिङन्तस्
यस्
हा तिङन्तस् आर् दोस् हा तिङ्गरूप तिङ्गक्रियापदानि आर् दोस् देट् यूस् द स्पेसिफिक् तिङ् सफिक्सिस् तिङ् सफिक्सिस् इन्क्लूड् वाट् तीतः अन्ति दिस् कैण्ड् आफ् आर् तिङ् सफिक्सिस् एस् वी लर्न् इन् गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छथ गच्छामि गच्छाव गच्छाम एण्ड् दे आर् फार् एव्री लकार देर् आर् दीस् स्पेसिफिक् दे आर् काल्ड् तिङ् प्रत्यय वै बिकास् दे स्टार्ट् वित् ति एण्ड् दे एण्ड् वित् ङ एट् द वेरि एण्ड् सो दीस् आर् प्रापर् ग्रमेटिकल् क्रियापदानि किन्तु कृदन्तरूपाणि अपि सन्ति कृदन्तरूपाणि दे यूस् देर् आर् हण्ड्रेड्स् आफ् प्रत्ययस् देट् पर्फार्म् द सेम् टास्क् एस् दीस् लकारस् डु and they bring slightly different shades of meaning so they have their own form like drishtva yesterday we talked about as a kridanta roopa is one of the kridant one of the hundreds of kridanta roopas are drishtva it what does it use it uses twanta what meaning does it bring kuch dekhkar here different kridanta rupa pratyaya is being used. It is called tavatu. It brings in bhutakala artha. Kutavatu, there is a half ka, then there is a ta, then there is a va, then there is a tu. Kutavatu, that is the name of the pratyaya, that is the name of the suffix. Now when you add that to the root pat, why pat? Because patati has the dhatu pat. So now the question is, you have a dhatu and you have this pratyaya. What do? You add it. So pat plus tavatu will bring some lots of changes will happen, and it will bring for pumlingam patitavan. For dvivachane patitavantau. Bahuvachana patitavantaha. Srilinge patitavati, patitavatyau, patitavatyaha. Pumlinge patitavat. Iti. Astu. So that is why you cannot compare them to ting rup. They are not, technically they are not kriyapadam, which means in sentences that use these krudanta rupani, for example, the first sentence in the katha at the bottom of 39, ekavaram puna patatu sudha bhagini kashchit.
आं भगिनि
कश्चित्
तव तु योजयित्वा पठामि
प्रथमतया तु यथा दत्तं पठतु, तदनन्तरं परिवर्तनं कृत्वा पठतु.
आं भगिनि. कश्चित् बालकः अस्ति.
अस्ति अधुना अस्ति किं कीदृशरूपं? तिङन्तरूपं क्रियापदम् अस्ति, सम्पूर्ण क्रियापदमस्ति. नौ अधुना परिवर्तनं कृत्वा पठतु.
कश्चित् बालकः भूतवान्.
भूतवान् अस्ति. भूतवान् तु क्रियापदं नास्ति, किन्तु क्रिया सूचयति. अधुना वाक्ये क्रियापदं नास्ति. किमर्थं नास्ति? कश्चित् बालकः भूतवान्. क्रियापदं नास्ति. क्रियापदम् अस्ति चेत् किं? कश्चित् बालकः भूतवान् अस्ति. अपि च कश्चित् बालकः भूतवान् आसीत्. तदनन्तरं भूतवान् बालकस्य विशेषण भवति. किमर्थम् इत्युक्ते भूतवान् तु क्रियापदं नास्ति. नास्ति चेत् कीदृशपदं? विशेषणपदम्. विशेषणपदम् अस्ति चेत् क्रियापदं किं? क्रियापदम् अन्यपदमस्ति. इत्युक्ते कश्चित् बालकः भूतवान् अस्ति. अवगतम्? किञ्चित् किञ्चित् अवगतम्. अस्तु अधुना कविता भगिनी पठतु.
भगिनी
एकः प्रश्नः अस्ति.
यस् भगिनी.
We say that, you know, you said that suk tinganta padam is the lakshanam for one padam in Sanskrit, right? So when we use this tavatu, then it won't be there, but the asti and asit, we make it implied, so it sticks to that rule.
You imply it, correct.
Okay,
it is implied here.
Okay,
we didn't use it because it is implied.
Okay.
So here also when we say ekah balaka, एकनिमिष शैलजा भगिनी, सुधा भगिनी, when we say एकः बालकः, is implied, no? सामान्यतया भाषायां इम्प्लैड् एव. शैलजा भगिनी पृच्छतु.
can we say like this bhagini, kashit balakah just asit, do we have to use like bhutavan? Is it compulsory to use bhutavan?
Asit tu tinganta padam asti, kintu aduna abhyasah kah?
हा भूतकाल हा तव तु प्रत्यय योजयित्वा
करोतु इति अभ्यासार्थं तु वयं कुर्मः भगिनि, अन्यथा तु किमपि नास्ति जीवने, अन्यथा किमपि नास्ति आवश्यकम्. अस्तु, कविता भगिनि पठतु भगिनि.
पतति, पतितवान्, पतितवन्तः, पतितवती.
वचनरूपं किं? पतितवन्तौ,
पतितवन्तः, पतितवती, पतितवत्यौ, पतितवत्यः.
उत्तमं. पतति
वदति, वदितवान्
भगिनि,
उक्त, सोरि, उक्तवान्, उक्तौ,
उक्तवन्तौ,
उक्तवन्तौ, उक्तवन्तः, उक्तवती, उक्तवत्यौ, उक्तवत्यः.
पिबति,
पीतवान्, पीत्यौ,
पीतवन्तौ,
पीतवन्तौ,
पीतवान्, पीतवन्तौ,
पीतवान्,
पीतवन्तौ,
पीतवान्, पीतवन्तौ, पीतवन्तः, पीतवती, पीतवत्यौ, पीतवत्यः.
लिखति,
लिखितवान्, लिखितवन्तौ, लिखितवन्तः, लिखितवती, लिखितवत्यौ, लिखितवत्यः.
उत्तमं. दीपशिखा भगिनी, नयति.
नयति, नीतवान्, नीतवन्तौ, नीतवन्तः, नीतवती, नीतवत्यौ, नीतवत्यः. पश्यति, दृष्टवान्, दृष्टवन्तौ, दृष्टवन्तः, दृष्टवती, दृष्टवत्यौ, दृष्टवत्यः. पृच्छति, पृष्टवान्, पृष्टवन्तौ, पृष्टवन्तः, पृष्टवती, पृष्टवत्यौ, पृष्टवत्यः.
उत्तमम्, उत्तमम्. बीना भगिनी करोति वा?
No, but can I ask you something? I have a doubt. Like, I see only ekavachan, bahuvachan, and there is a something like
द्विवचने,
no, दृष्ट, in between they are saying दृष्ट वान, दृष्ट वतौ, that with the औ.
वन्तौ is a द्विवचने, dual case.
Okay, dual case. एकवचन बहु, dual, okay, dual is also, okay, thank you.
एकवचन, द्विवचन, बहुवचन, संस्कृत.
Okay, all right, okay, yeah, thank you.
अस्तु, पापाजी करोतु. त्यजति,
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 त्यजति. आप ऑन तो करिए अपना, वो ऑन करिए, अनम्यूट करिए.
आई कैन हियर यू.
अच्छा, हाँ, त्यजति करिए.
चक्तवान, चक्तवन्तौ, चक्तवन्तः.
हाँ, अग्रिम.
चक्तवती, चक्तवत्यौ, चक्तवत्यः.
हाँ, अग्रिमम्.
खादति खादितवन्तौ खादितवन्तः खादितवती खादितवत्यौ खादितवत्या
उत्तमम् अग्रिमं जानाति
ज्ञातवान् ज्ञातवन्तौ ज्ञातवन्तः ज्ञातवती ज्ञातवत्यौ ज्ञातवत्या
उत्तमम् उत्तमं शैलजा भगिनी अग्रिमं करोतु
आं भगिनि शृणोति श्रुतवान् श्रुतवन्तौ
करोति
करोति सोरि भगिनि करोति कृतवान् कृतवन्तौ कृतवन्तः कृतवती कृतवती कृतवत्यौ कृतवत्यः नेक्स्ट् वन् आल्सो भगिनि शृणोति श्रुतवान् श्रुतवन्तौ श्रुतवन्तः श्रुतवती श्रुतवत्यौ श्रुतवत्यः
अग्रिमं
ददति दत्तवान् दत्तवन्
भगिनि समीकरोतु
ददति ददति
पुनः पठतु
ददाति सोरि भगिनि ददाति दत्तवान् दत्तवन्तौ दत्तवन्तः दत्तवती दत्तवत्यौ दत्तवत्यः
उत्तमम् उत्तमं सुधा भगिनि
आं भगिनि उत्तिष्ठति उत्थितवान् उत्थितवन्तौ उत्थितवन्तः उत्थितवती उत्थितवत्यौ उत्थितवत्यः उपविशति उपविष्टवान् उपविष्टवन्तौ उपविष्टवन्तः उपविष्टवती उपविष्टवत्यौ उपविष्टवत्यः स्थापयति स्थापितवान् स्थापितवन्तौ स्थापितवन्तः स्थापितवती स्थापितवत्यौ स्थापितवत्यः
उत्तमं कविता भगिनी पुनः करोतु
हौ डू यू से गृह्णाति गृह्णाति
गृह्णाति
गृह्णाति गृहीतवान् गृहीतवन्तौ
गृहीतवान् गृहीतवान् दीर्घ ई अस्ति तत्र
गृहीतवान् गृहीतवन्तौ गृहीतवन्तः गृहीतवती गृहीतवत्यौ गृहीतवत्यः रोदिति रुदितवान् रुदितवान् रुदितवन्तौ रुदितवन्तः रुदितवती रुदितवत्यौ रुदितवत्यः
उत्तमं धन्यवादः भगिनी दीक्षिका भगिनी अन्तिम द्वे करोतु
आं भगिनि शक्नोति शक्तवान् शक्तवन्तौ शक्तवन्तः शक्तवती शक्तवत्यौ शक्तवत्यः भवति अभवत्
अभवत् तु अस्ति अत्र तु दत्तमेव अभवत् अभवन्
अभवन्
किन्तु तव तु योजयित्वा किं भूतवान्
हा भूतवान् भूतवन्तौ भूतवन्तः भूतवती भूतवत्यौ भूतवत्यः
तदेव भूतवान् अस्तु That's how in Hindi we call bhuta, no? For somebody who has gone. अस्तु भूत अस्तु अधुना वयं किं कुर्मः एकचत्वारिंशत्तमे पुटे उपरि भागे 11.3e एकः अभ्यासः तत्र अस्ति रक्तवर्णानि कविता भगिनी पठतु पुनः पठतु रक्तवर्णानि तत्र किञ्चित् पदानि दत्तानि, पठतु.
इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु.
इत्युक्ते किम्?
Request you to reread the story with the past tense.
Past tense tu asti tat astu. Past tense kintu ki drisha past tense? Tavatu yojayitva.
Achha, okay. So tavatu means bhutkal. That is past tense.
Tavatu is a pratyaya, which is not a kriyapadam. There are many ways to say past tense in Sanskrit. Ways to say them. One is using proper kriyapadam. Kriyapadam means they have to have a lakara ending. That's a proper kriyapadam.
Okay.
Otherwise, they use pratyaya. Pratyaya indicates the kriya. For example, tavatu indicates the kriya. Drishtva indicates the kriya, but it's itself not a proper verb. According to Sanskrit definition, it does not qualify the definition of a verb. What doesn't? Drishtva, patitva, svikritya, lyap, another pratyaya. So many pratyayas, hundreds of pratyayas are there. Each bring a different meaning. Here, Tavatu Pratyaya brings in the meaning of past tense. But it's not a Kriyapadam. You understand? It is indicating a task, it is indicating an action, but it is technically not a verb. Kriyapadam ichyukte verb. Verb ichyukte vayyakarana sanya. It is a very grammatical term. It's not just a loose term. Very, very systematic, grammatical term. Tavatu is a pratyaya. So, in the title of page 38, they call them what? Bhutakala Rupani. See, this Abhyasa Pustakam introduces topics very gently. Nobody is telling you all these things. Simply, they are calling it Bhutakal and simply saying all this. Because it's very, very technical if you start going into all of these issues. So, what you do is, I am telling you the difference between Lakara Rupani. All the Lakaras that you find in Ashtadhyayi.com, all the verbal roops you find in Ashtadhyayi.com are technical verbs. They qualify all the definitions of a verb. In the Lakaras, 10 Lakaras there, in each lakara, depending on parasmaipadi, atmanepadi, everyone has a form. Those are kriyapadani. You can say all those same meanings using different hundreds of pratyaya options are there. This is one such past tense option. So if you say, idanim kriyapadanam, kriyapadanam vibhakti rupam kim? Tavita bhagini, vadatu.
Kriyapadanam.
Ipshika bhagini vadatu. Kriyapadanam. Vibhakti rupam kim?
Dvitiya vibhakti bahuvachana rupa akaranta pumlinga padam.
Na bhagini. दीक्षिका भगिनी वदतु क्रियापदानां. क्रियापदानां
क्रियापदो को
न न
क्रियापदानां
भगिनी विभक्ति रूपं किं तत्र क्रियापदानां कीदृश विभक्ति तत्र
क्रियापदानां
अस्तु पुनः पठतु पदं कीदृश पदं कीदृश पदं पदं नपुंसकलिङ्गं पदं फलम् इति वानव यथा फलं तथा पदम् अस्ति
अस्ति
अस्ति अस्तु फलं फले फलानि सम्पूर्णरूपाणि पठतु भगिनि
फलं फले फलानि फलं फले फलानि फलेन फलाभ्यां फलैः फलेन फलाभ्यां फलैः फलाय फलाभ्यां फलेभ्यः फलात् फलाभ्यां फलेभ्यः फलस्य फलयोः फलानां फले फलयोः फलेषु हे फल हे फल हे फलानि
हे फल
हे फल हे फल हे फल हे फलानि
अधुना क्रियापदानां कीदृशपदं तत्र
नपुंसकलिङ्गपदम्
अस्तु रूपं विभक्तिरूपं किम्
क्रियापदानां विभक्ति क्रियापदानां द्वितीयविभक्ति द्वितीयविभक्ति
षष्टी विभक्ति बहुवचनरूपम्
षष्टि बहुवचन अच्छा
हाँ षष्टि बहुवचन मनानां
सर्वं विस्मरामि वा ऑल फॉरगॉटन अस्तु सो प्रत्येक दिनं प्रतिदिनं एटलीस्ट प्रतिदिनं अकारांत पुंलिंग रूपाणि आकारांत स्त्रीलिंग रूपाणि एकवारं पठतु कृपया एवरी डे वंस ओर ट्वाइस यू रीड दैट इज अ फाउंडेशन बार रोज पढ़िए आप रोज दिस मच एटलीस्ट और यू पुट अ रिकॉर्डिंग यू मेक अ साउंड रिकॉर्डिंग आई माइट हैव ऑलरेडी गिवन यू वन एंड यू जस्ट पुट इट ऑन व्हाइल यू आर कुकिंग और समथिंग इट विल सिट इन योर माइंड बिकॉज दिस इज द फंडामेंटल इफ यू डोंट आइडेंटिफाई द वर्ड देन यू डोंट नो वेयर टू गो विद इट अधुना षष्ठी बहुवचन रूपम इत्युक्ते किम अर्थ का कविता भगिनी क्रियापदानाम् इत्युक्ते
क्रियापदं का के की क्रियापदं का या के क्रियापदं के भूतकाल रूप
किन्तु अत्र तु बहुवचन अस्ति
क्रियापदों के
तदेव क्रियापदों के इत्युक्ते क्रियापदानां भूतकालरूपाणि उपयुज्य उपयुज्य इति पदस्य विषये सलजा भगिनी वदतु उपयुज्य कीदृशपदं तत्र
उपयुज्य यूज करके
अर्थ तु अवगतम् कीदृशपदं तत्र आदौ किम् अस्ति
कर्मपदमस्ति
पदे
षष्टिविभक्ति
न न न पदे आदौ किं दत्तं पदे अस्तु अस्तु धातु किं तत्र कोऽपि जानाति वा योग सर्वं तु शृणोति एव योग योग योगासन योग धातु किम् धातु किं तत्र
युज् युज् धातु
युज् तदेव अत्र अस्ति युज् धातुतः उपयुज्य इति निष्पन्नं भवति अस्तु धातु तु युज् अस्ति तस्य पूर्वं किम् अस्ति अत्र उपयुज्य किमस्ति
उपसर्ग अस्ति
उपसर्ग अस्ति कीदृश उपसर्ग भगिनि
उप
उप
इति ल्यप्य प्रत्यय भगिनि
ल्यप् उत्तमं तदेव
ल्यप् प्रत्यय
यकार अन्ते आयाति अपि च आदौ आदौ इत्युक्ते
इन् द फ्रंट
इन द फ्रंट आदि हम लोग बोलते ना आदि
उपसर्ग धातु
आदि 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 आदमी आदि मीन्स व्हाट शुरू से
स्टार्टिंग बिगिनिंग
बिगिनिंग इत्युक्ते आदौ तु सप्तमी आदौ इति सप्तमी भूमि भूमि कीदृशपदम् भूमि इत्युक्ते अर्थ
भूमि
भूमि माने माता अपनी धरती माता सप्तमी किं भूमौ आदि आदौ सप्तमी सप्तमी अधिकरण अर्थे इत्युक्ते आदौ धातु धातु तु युज् अस्ति पदे आदौ किं उप उप एकम्
उपसर्ग
उप अस्ति उपयुज्य अन्ते य अस्ति अधुना
या या प्रत्यय अस्ति
या तु न या प्रत्यय नास्ति भगिनि
ल्यप् ल्यप् प्रत्यय ल्यप्
ल्यप् प्रत्यय य एव तिष्ठति ल अपि च प अपगच्छति अपगच्छति दे डिसपियर् ओन्ली य रिमेन्स् एण्ड् इट् अटाचेस् टु द बेक् आफ् द वर्ड् वाट् अटाचेस् टु द फ्रण्ट् आफ् द वर्ड् उप वै बिकास् देट् इस् इट्स् नेचर् वै इस् इट्स् नेचर् बिकास् इट् इस् काल्ड् अ उपसर्ग उपसर्ग मीन्स् प्रीफिक्स् लैक् फार् एक्साम्पल् इन् इङ्ग्लिश् गिव् मी अ उपसर्ग like dislike you cannot say like this no it is the nature of this to come in front of the word to make dislike joint disjoint
similar dissimilar
aware unaware un you cannot put un at the end of aware you cannot say aware un is not its nature you have to listen to its nature you have to understand its nature is to be in front of the word so unaware atra tu upayujya upar prefix asti prefix ityukte samskara bhasha sanskrit bhashayam upasarga iti upayujya उपयुज्य अपि एकं कृदन्तपदम् किमर्थं क्रियापदं नास्ति किन्तु क्रिया सूचयति इट् डिस्क्रैब्स् एन् एक्षन् बट् इट् इस् टेक्निकलि नाट् अ क्रियापदम् उपयुज्य नौ विच् इस् द क्रियापदम् इन् दट् सेण्टेन्स् इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु क्रियापदं किं तत्र
पठतु
पठतु तदेव पठतु क्रियापदं कथं जानीमः पठतु क्रियापदम् अस्ति
आकरीचिह्न अस्ति चेत् लकार
आखरी चिह्न किं
लोट् लकारः अस्ति
लोट् लकार शब्दः
लोट् अपि च तु तु अस्ति चेत् लोट् प्रथमपुरुष एकवचनरूपं तु आयाति लोट् लोट् इत्युक्ते आज्ञा विनति इति
प्रार्थना
प्रार्थना इति so upayujya and twant both you use only when there are two actions in one sentence two actions one after the other are happening then you will use either a twant or you will use a lyap here they have used lyap why have they used lyap
upasarga
asti satra Yeah, if upasarga was not there, then it would probably be, I don't know, yuktva or something. But yuktva I've never heard because always I hear upayujya. Astu. Astu. Aduna. हाँ इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु इत्युक्ते तव तु रूपाणि योजयित्वा योजयित्वा कथां पुनः पठतु सुधा भगिनी पुनः पठतु भगिनी आरम्भे
आं भगिनी
नवत्रिंशत् तमे पुटे अधोभागे 11.3
तव तु योजयित्वा पठामि वा
हा पुनः एकमेकं वाक्यं स्वीकृत्य प्रथमवारं तु यथा दत्तं तथा पठतु तदनन्तरं परिवर्तनं कृत्वा पठतु एकमेकं वाक्यं स्वीकृत्य
आं भगिनि
प्रतिवाक्यं हा करोतु
कश्चित् बालकः अस्ति
कश्चित्
बालकः भूतवान्
भूतवान् अपि च भूतवान् अस्ति
भूतवान्
क्रियापदं योजयित्वा तु अस्ति अपि च आसीत् किमपि
तस्य नाम सुधीरः अस्ति इति इम्प्लैड् तस्य नाम सुधीरः भूतवान्
भूतवान् अपि च अत्र तु अत्र
दत्तं नास्ति
तदनन्तरम्
एकदा सुधीरः नगरं गच्छति गच्छति इति क्रियापदस्य तवतु प्रत्ययरूपं गतवान् एकदा सुधीरः नगरं गतवान् शिरस्त्राणि क्रीणाति शिरस्त्राणि क्रीतवान् तेषां विक्रयणार्थं ग्रामं गच्छति तेषां विक्रयणार्थं ग्रामं गतवान् मार्गे अरण्यम् अस्ति मार्गे अरण्यं भूतवत्
भूतवत् किमर्थम्
आरण्यम् इति नपुंसकलिङ्गम् अस्ति
नपुंसकलिङ्गम् आरण्यं तदा तत् तदेव अहं उक्तवती तव तु प्रत्यया क्रियापदं नास्ति इति तु विशेषणपदं पदस्य कार्यं करोति अधुना तु अरण्यं नपुंसकलिङ्गं पदं तदनन्तरं भूतवत् अपि नपुंसकलिङ्गम् एकवचनरूपम्
सुधीरः श्रान्तः भवति सुधीरः श्रान्तः भूतवान् सः वृक्षस्य अधः उपविशति सः वृक्षस्य अधः उपविष्टवान् शिरस्त्रपेटिकां पार्श्वे स्थापयति शिरस्त्रपेटिकां पार्श्वे स्थापितवान् तत्र एव निद्रां करोति तत्र एव निद्रां कृतवान्
कृतवान् सुन्दरं धन्यवादः भगिनि
धन्यवादः
शैलजा भगिनी अग्रिमं परिचयं
आं भगिनि तत्र केचन वानराः सन्ति तत्र केचन वानराः भूतवन्तः एकः वानरः सुधीरस्य समीपम् आगच्छति एकः वानरः सुधीरस्य समीपस्य समीपम् आगतवान् सः पेटिकां पश्यति उद्घाटयति सः पेटिकां दृष्टवान् उद्घाटितवान् एकं शिरस्त्रं गृह्णाति एकं शिरस्त्रं गृहीतवान् शिरसि
अत्र किमर्थं धातु तु गृह् एव णकार तु किमपि अन्यकार्ये आयाति हा धातु तु गृह् So gruhitavan.
Gruhitavan. Now will disappear in tavatu pratyaya padam.
Because na was added because it is a kriya padam and it is one of the ganas. In which gana is it? You remember? Kasya ganasya
gruhnati.
Nati ayati.
No, Bhagini, I did not remember the ghana.
Chintamastu. Agreem?
Shirasi dharayati. Shirasi drutavan. Punaha rukshasya vupari gachati. Punaha rukshasya vupari gatavan. Gatavan. Upavishati. Upavistavan.
Upavishtavan. Aduna, Kavita Bhagini Avagatam, Dipshika Bhagini Avagatam?
Kinchit.
Kinchit, Kimartham. Kimartham, Kinchit. Kimna Avagatam.
Like this Aranyam. Napunsakalingam that you mentioned that I will have to that and otherwise those words which are given in the exercise on page number 38 yes I am relating to those and trying to follow
Atra Anya Astu Sudhirasya Kidrisha Vibhakti Dipshika Bhagini Sudhirasya Kidrisha Padam
Sudhirasya षष्टि विभक्ति
षष्टि संपूर्ण वदतु
षष्टि विभक्ति नपुं सुधीरस्य पुल्लिंग पदम षष्टि विभक्ति एकवचन
अकारांत
पुल्लिंग पदम षष्टि विभक्ति एकवचन सुधीरस्य सुधीर का केकी
उत्तमं पेटिकां कीदृश पदम
पेटिकाम अकारांत नपुंसकलिंग पदम
कथम भगिनी कथम जानीमः
पेटिकाम नो वनानाम पेटिकाम वनानाम पेटिकाम षष्टि विभक्ति बहुवचन
ना भगिनी ना 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 कथम जानीमः प्रक्रिया किम यदि वयं न जानाति जानीमः तदनन्तरं प्रक्रिया किम् कविता भगिनी पेटिकां प्रक्रिया किम्
आकारान्तः स्त्रीलिङ्गपदं रमावत्
कथं जानीमः
स्पोकन् संस्कृत
मध्ये एकवारं पश्यतु पुंलिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा पेटिका शिरसि कीदृश पदं कविता भगिनी शिरसि दीप्षिका भगिनी वदतु कविता भगिनी
इट्स शिर इज कमिंग एज मैस्कुलिन आल्सो एंड न्यूटर जेंडर आल्सो सो देन वी विल हैव टू सी
कीदृश पदं सकारांत
Shirasi is masculine on the head location.
Ityukte kidrisha rupam
Pumlinga padam, the ikaranta, Rishva ikaranta, Pumlinga padam.
Napum sakalingam padam bagini, shiras, sakaranta, ityukte halanta padam. Ante kimapi swaraha nasti. Shiras, hal varnasti, hal ityukte consonant. हल् इत्युक्ते कान्सनेण्ट्, हल् इत्युक्ते कान्सनेण्ट् कथं जानीमः?
Because it does not have the complete sound, it stops halfway.
Aha, tattu satyam, kintu hal kim, katham jani maha, hal ityukte kim, hal eka?
Sutrani.
Haa, Maheshwara Sutrani, taha vayam jani maha, hal ityukte sarvani vyanjanani. Sarvani vyanjanani. Apicha, sarve swaraha. प्रत्याहार किं कोऽपि जानाति वा? अन्य कोऽपि वदतु, स्वराः प्रत्याहार किं? सर्वे स्वराः इत्युक्ते माहेश्वरसूत्राणि तः अ इ उन् ऋल् ऋक्
अच्
ओं अच् उत्तमम् A, I, un, rul, ruk, e, ong, ai, au, ch. Ch. A, arabataha, ch, pariyantam, sarve, swaraha, ayanti. All the swaras are included in the sound ach. Why? Because starting from a till the sound ch, they are all there in the sutras. And starting from ha, hayavarat, lan, jabhai, yamangadanam, all of these end in la, hal, last sutra, hal. So starting from hayavarat, that ha, to la, all the vyanjanani, which means all the stop sounds, all the consonants are in that. Atra, shiras, kidrashapadam, हलन्तपदम्, हलन्तपदम्. सो इन् अवर् शब्दमञ्जरी इन् द बिगिनिङ्ग् पुंलिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् ओन्लि द अजन्तरूपाणि आर् गिवन्. अजन्त वै अच् अच्. रिमेम्बर् वी जस्ट् सेड् अच् मीन्स् आल् स्वराः. So, ach followed by the sound a. Ach plus a automatically with sandhi, our voices will become ajanta. Instead of saying achanta, we'll say ajanta normally. So, they're all called ajanta. So, look at your shabda manjari. Pashyatu ekavaram pashyatu. Tatra dattam. Prathama pute. Kim dattam? Sri Ram Jayam. विद्यया विन्दते अमृतं शब्दमञ्जरी साधारणशब्दविभागः अजन्त इति दत्तं. दत्तं वा न वा? अजन्त. किमर्थम् अजन्त इत्युक्ते अन्ते स्वरः अस्ति. कस्य अन्ते? राम. प्रातिपदिकस्य अन्ते स्वरः अस्ति चेत् अजन्तपदम् इत्युक्ते अजन्तपुंलिङ्गं प्रकरणम्. प्रकरणम् इत्युक्ते द फार्म्स्, द वेज् प्रकरणम्. अग्रिमम् इकारान्त. सर्वे अजन्त अस्ति वा न वा? रुकारान्त, एकारान्त, ऐकारान्त. स्त्रीलिङ्ग् अपि समानेव. स्त्रीलिङ्ग् एकवारं पश्यतु. स्त्रीलिङ्गरूपाणि अजन्तस्त्रीलिङ्गप्रकरणं पुटसङ्ख्या एकविंशति तमे पुटे अजन्तस्त्रीलिङ्गप्रकरणं. तदनन्तरं नपुंसकलिङ्गम् आयाति कुत्र? पुटसङ्ख्या सप्तविंशति तमे पुटे अजन्तनपुंसकलिङ्गप्रकरणं. तदनन्तरं हलन्त आयान्ति. सर्वाणि हलन्तरूपाणि आयान्ति. पुटसङ्ख्या किम्? एकत्रिंशत्. तमे पुटे पश्यतु सर्वे हलन्तपुंलिङ्गप्रकरणम् अस्ति वा न वा पश्यति वा सर्वे
पश्यामि भगिनि
हलन्त हल् इत्युक्ते किम् अन्ते किमपि व्यञ्जन अस्ति कीदृशव्यञ्जन जलमुच् अन्ते चकार आयाति वणिज् अन्ते जकार आयाति राज् अन्ते जकार आयाति मरुत् तकार आयाति पचत् तकार आयाति धीमत् तकार आयाति महत् सुहृद् दकार अधुना तदनन्तरं राजन् आत्मन् श्वन् युवन् मघवन् पथिन् करिन् विश् तादृश् द्विष् वेधस् श्रेयस् विद्वस् पुंस् दोस् लिह् इति सर्वाणि पुंलिङ्गपदानि दत्तानि तदनन्तरं स्त्रीलिङ्ग् हलन्तपदानि आयाति किं क्षुद् क्षुद् सीमन् अप् कुकुभ गिर दिव निश दिश प्रावृष भास आशिस उपान तदनन्तरं नपुंसकलिङ्गं हलन्त कीदृशं सुवाच असृज जगत् ददत् तुदत् पचत् महत् हृद् नामन् नामन्तः नाम आयाति नाम एकं पदमस्ति इत्युक्ते पूर्वस्मिन् काले एक राजा दशरथनाम आसीत् धार्मिकराजा दशरथनाम आसीत् नाम इत्युक्ते किं नामन् प्रातिपदिकं नामन् नकारान्त नपुंसकलिङ्गं पदमस्ति तदनन्तरं कर्मन् कर्मन् अहन् गुणिन् गुणिन् वार् तादृश् सुत्विश् मनस् हविस् वपुस् तस्थिवस् ऐ नेवर् सीन् दट् वन् बिफोर् तस्थिवत् तस्थुषी तस्थिवांसि किञ्चित् क्लिष्ट जाता तत्र अस्तु अवगतं सर्वे किञ्चित् किञ्चित् मनसि तिष्ठति
वा
दिस् सिम्पल् थिङ्ग्स् देट् यु डू यु नो यु केन् डू दिस् जस्ट् एस् अ टैम् पास् सिटिङ्ग् नाट् मच् ब्रेन् इस् वर्किङ्ग् यु जस्ट् लुक् थ्रू ओ वाट् इस् देर् इन् दिस् बुक् इट् ओपन्स् युर् मैण्ड् इट् ओपन्स् युर् ऐस् ओ मै गाड् दिस् इस् देर् नौ आफ्टर् दिस् दिस् इस् देर् दे आल् शेर् दिस् इन् कामन् दिस् कामन् पेटर्न्स् विल् स्टार्ट् टु इमर्ज् इन् युर् मैण्ड् I have done this so many times, yet some see today I saw a word, I said I have never seen it before and I have notes on it. Just now I said, no, I have never seen this word. I have notes on that word, Bhagini. I have written down things against it. And still I feel I have never seen it. It disappears from the mind, this word. Tasthivas. Astu. So, this kind of abhyasa will keep you connected, even if you are missing class or something, just keeping that eye open, your little window for Sanskrit, keep it open, that's all. This is a good way to do it. Sometimes you pick up abhyasa pustakam, it's too daunting. But this Shabda Manjari is nothing daunting about it. New words are there. I find new words very, very engaging. New words. What meaning do they have? Astu. Aduna, Deepshika Bhagini Avagatavati, Tatra Kechana Vanaraha, Bhutavantaha, Iti. Tavatu Pratye Yojaitva?
Naam Bhagini.
Agrivam Karotu Bhagini.
Anye Api Vanaraha Etat Pashyanti. To Anye Api Vanaraha Etat Drishtvan.
Aduna
Pashyanti.
Haan, vachanam kim?
Oh, Pashyanti.
Pashyati.
Pashyanti to bahuvachan.
Bahuvachanam asti chet.
Okay, haan, bas bahuvachanam, to it will be Drishtvantah.
Katham janima Drishtvantah. Drishtavatyau, Drishtavatyah nasti.
Vanaraha.
Vanaraha
pullinga padam. Akarant.
Vanaraha
pullinga padam.
Vanaraha, vanarau, vanaraha.
Bahuvachan, hai na? To drishtavantah. Te api Shirastratam Shirastram Ichanti. Ichanti will change to Ichanti. Ichitvantaha.
Anya kopi sahayam karatu.
Ishtavan.
Ishtavantah.
Ishtavantah.
Ishtavantah. Okay. Atah adyah agachanti. Agachanti.
Adyah tu na bhagini. Punah patato.
Atah adah. Adah agachanti. Agachanti agatvantah.
Agatvantah.
Agatvantah. Shirastrani dharyanti. Dharyanti. Dharyanti.
Sahayam karotu.
Dharyanti.
Dharayanti dhrutavan.
Achha, dhrutavantah.
Dharitavantah.
Dhru. Dhru asti kim bhavat rupam?
Dhrutavan.
Dhrutavan. No? Eka nimisha.
Matlab like tapitavan asti chet tapayati tapitavan iti ahamanye. Dharayati dharitavan.
Eka nimisha. Dhru asti chit. Kridanta rupani ekam pustakam asti. Dhru. Dhru. Agrimam patatu bhagini aham ekavaram.
Vrakshe upavishanti. Vrakshe upavishtavantah.
Tadanantaram?
तदनन्तरम्
उत्तमं, धन्यवादः भगिनि, समीचीनम्. अस्तु कविता भगिनी, प्रयत्नं करोति वा?
आं भगिनि. सुधीरः जागरितः भवति. सुधीरः जागरितः भूतवान् पुरतः पश्यति, पुरतः दृष्टवान्. एकम् अपि
पुरतः न
पुरतः पुरतः दृष्टवान्
इति ह्रस्व अस्ति भगिनि. पुरतः
पुरतः दृष्टवान् एकम् अपि शिरस्त्रं नास्ति. नास्ति का क्या होएगा? अस्ति सो नास्ति.
न
भूतवान्. ओके. एकम् अपि शिरस्त्रं न भूतवान्. सः वानरान् पश्यति. सः वानरान् दृष्टवान्. शिरस्त्राणि तत्र सन्ति. सन्ति का?
सन्ति
का आसन होएगा?
सन्ति किमर्थं? सन्ति कीदृशपदं? सन्ति तु वर्तमानकाले.
यस् आर् मतलब है.
शिरस्त्राणि
तत्र है.
हैं
तो थे बोलना है. तो थे को कैसे बोलेंगे?
बहुवचनम है नहीं हैं.
हैं
हैं अस्तु. अधुना सन्ति सर्वाणि रूपाणि वदतु. अस्ति सः सन्ति. अस्ति अस्ति तवत् रूपं किम् अभवत्? अस्ति अस्ति चेत् भूतवान् भूतवन्तौ भूतवन्तः. अस्ति सः सन्ति भूतवान् भूतवन्तौ भूतवन्तः. अस्ति अस्ति वर्तमानकाले. किम् अभवत् परिवर्तनं कृत्वा?
भूतवन्तः.
भूतवन्तः.
शिरस्त्राणि तत्र भूतवन्तः. सः दण्डं दर्शयति. सः दण्डं दर्शयितवान्. सः दण्डं दर्शयितवान्. वानराः वृक्षशाखाः दर्शयन्ति. वानराः वृक्षशाखाः दर्शयितवन्तः. ओके. सुधीरः शिलाखण्डं क्षिपति. सुधीरः शिलाखण्डं
शिलाखण्डं
क्षिपतवन्तः. नो क्षिपतवती.
अन्यसाहाय्यं करोतु.
क्षिप्तवान्.
ओके पुंलिङ्ग. क्षिप्तवान्
खण्डं कीदृशपदं? शिलाखण्डं. खण्डं कीदृशपदम्?
I will check. खण्ड खण्ड इति पुंलिङ्गपदं.
अस्तु तदनन्तरं
एडजेक्टिव और खंड हाँ मैस्कुलिन और न्यूटर दोनों का आ रहा है मैस्कुलिन भी है खंड इज पी
अस्तु इसमें बहुत आ रहा है
वानराः फलानि क्षिपन्ति वानराः फलानि नो आई डोंट नो
क्षिप्तवान्
क्षिप्तवान् ओके
द्विवचने
क्षिप्तवन्तौ
क्षिप्तवन्तः
क्षिप्तवन्तः किमर्थं वन्तः क्षिपन्ति बहुवचनमस्ति अवगतं कविता भगिनी क्षिप्तवती किमर्थम् आयाति क्षिप्तवती क्षिप्तवतः क्षिप्तवन्ति सो क्षिप्तवान् क्षिप्तवन्तौ क्षिप्तवन्तः यदि पुंलिङ्ग् अस्ति चेत्
So this is Phalani, so Napum Sakalinga. Okay, Bhagini. If it's not in Napum Sakalinga, then it's a little confusion in result. Okay.
So, Vanaraha Phalani, Shila, Satra Kima Bhavat, Sudhiraha Shila Khandam Shiptavan. Ityukte, कः क्षिप्तवान् सुधीरः क्षिप्तवान् कर्मपदं किं शिलाखण्डम् किन्तु अत्र कर्तृपदं किं सुधीरः क्षिप्तवान् सुधीरः कीदृशपदं पुंलिङ्गं पदं सो क्षिप्तवान् तदनन्तरं वानराः फलानि क्षिपन्ति वानराः कीदृशपदं कर्तृपदं पुंलिङ्गे बहुवचनरूपं सो वानराः क्षिप्तवन्तः इति अवगतं भगिनि
यस् भगिनि So you don't have to see Phalani ke saath uska relation.
Haan, karma padam
because Phalani.
Uttamam. Kimartham, kartrapadam, kartrapadasya visheshanam bhavati, tavatu. Uska visheshan jaise kaam karta hai wo. That is why it matches. Kartrapadasya visheshanam tatra. Sudhiraha, kyunki it is showing a kriya na. सो कौन कर रहा है क्रिया सुधीर सो वानराः क्षिप्तवन्तः उत्तमं पापाजी अग्रिमं करोतु
भगिनी एक प्रश्नः शिरस् पूर्वं वाक्ये शिरस्त्राणि तत्र सन्ति शिरस्त्राणि इति नपुंसकलिङ्ग बहुवचनमस्ति सन्ति इति
नपुंसकलिङ्गं भूतवत् नो शिरस्त्राणि शिरसि तु कर्मपदमस्ति कर्मपदं विना अस्ति कर्तृपदं तत्र किं सुधीरः एव वानरः वा वानरः कर्तृपदम् इत्युक्ते वानरः धृतवान् तत्र तत् वाक्ये वानरः धृतवान् किमर्थं वानरः तु पुंलिङ्ग् अस्ति
न भगिनि शिरस्त्राणि तत्र सन्ति इति वाक्यम्
ओ हा शिरस्त्राणि तत्र सन्ति अस्तु शिरस्त्राणि तु नपुंसकलिङ्गमस्ति शिरस्त्राणि तत्र सन्ति सो सन्ति इत्युक्ते अस्ति भूतवान् किन्तु नपुंसकलिङ्गे तु भूतवत् अस्ति
भूतवन्ति बहुवचनं भूतवन्ति वा
भूतवत् 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 भूतवन्
भूतवत् भूतवति भूतवन्ति वा
एकनिमिष भूतवत् भ्रम जाता मम मनसि भूतवत् भूतवन्तः भूतवन् पुंलिङ्ग अस्तु मम मनसि भ्रम जाता भगिनि किञ्चित् अन्वेषणं कृत्वा अहं वदामि
आं भगिनि
अस्तु ऐल् फैण्ड् औट् भगिनि भ्रम जाता मम मनसि अपि अस्तु अस्तु पापजि अन्तिमपरिच्छेद पठति वा सुधीरः उपायं करोति
सुधीरः उपायं करोति
पुनः पठतु
करोति को चेंज करना है पापा कृत्वा कृतवान हो जाएगा भूत भूतकाल में बदलना है हाँ तो करोति कृतवान
उपायं कृतवान
हाँ जानाति जानाति बदलेगा ज्ञातवान
क्षिप्तवान्
सर्वे अपि वानराः शस्त्राणि क्षिप्तवान्
ये तो अन्ति है ना पापा तो ये क्षिप्तवन्तः हो जाएगा
वानराः क्षिप्तवन्तः
क्षिप्तवन्तः
क्षिप् न क्षिप् भगिनि
क्षिप्तवन्तः
क्षिप्
क्षिप्तवन्तः
क्षिप्तवन्तः
सङ्ग्रहाति सर्वाणि
सङ्गृहीतवान्
सर्वाणि सङ्गृहीतवान् शीघ्रम् अन्यत् गच्छति वा
तमे पुटे गच्छति
गच्छति का होता है गतवान्
गतवान् शीघ्रम् अन्यत्र गतवान् उत्तमम् उत्तमं तदेव सुन्दरम् अस्तु अधुना एकवारं पुनः गृहपाठरूपेण पठतु तव तु प्रत्यय सर्वाणि रूपाणि एकवारं पठतु कृपया यथा शक्यम् अस्तु अन्य कोऽपि प्रश्नः अस्ति वा
भगिनि माय क्वेश्चन इज वेरी सिली बट एक्चुअली जो अभी आपने बोला था ना क्रिया के जो हम लोग डस इट स्टैंड अलोन की लाइक इट्स नॉट अ प्योर क्रिया एनी ऑफ द क्रियास और देयर आर वर्ड्स दैट आर प्योर क्रियास
या व्हिच आर द प्योर प्योर क्रिया वर्ड द थिंग अंत दे आर लाइक गच्छति गच्छतः गच्छन्ति अस्ति स्तः सन्ति All of these usually that have been learnt in this book have all been real kriya padam like grahnati upavishati these t ending words for you in the very beginning these t ending words are all kriya padam by definition in Sanskrit
okay Karoti, and only the most other than those words which are half sounds only when you add upsarga upasarga or pratyaya that it becomes pratyaya it's called pratyayanta na
I don't know half sound means what
like correct like I'm just I don't know how to say that
no in nathingant also you will find this so you have ashtadhyayi.com
no I have to I'm just starting to make figure out some stuff not yet in the
do you have it open ashtadhyayi.com
Ashtadhyayi, no.
Open it. Asht, I'll send it to you on, I'll tell you which link. Bhudhatu only I'll send to you. So, this is Ashtadhyayi. Open up this link. You save this link, Bhagini.
Okay.
Now, all the Rupani is in this kind of a setting.
Mm-hmm.
So, what does it say in the beginning? First, on the top, it says, Kim api vadatu, Sudha Bhagini, Atra Kim, Shirsha kaha kaha, Bhu, Bhu ityukte?
Ekanimsham Bhagini, haam Bhagini.
Bhu ityukte kim?
Bhu iti dhatu asti.
Mooladhatu. Mooladhatu bhu. Tadanantaram saptayam. Saptayam ityukte?
Saptayam iti artha asti.
Artha asti. Sarvada? Artha sarvada?
अतः सर्वदा सप्तमी अस्ति. सप्तमी विभक्ति.
सप्तमी विभक्त्याम् अस्ति. ऑलवेज इन द सेवेंथ केस बिकॉज इट इज अधिकरण सप्तायाम. देन इन इंग्लिश इट सेज बिना भगिनी यू आर फॉलोइंग राइट टू एग्जिस्ट टू बिकम टू बी टू हैपन. Tadanantaram, some red writing is there. In that, all you have to write now, see, is Bhuadihi. Just look at it, that's all. And let it go. Now, Tinganta Rupani is given. You see that highlighted in the bottom, in the three words, Tinganta Rupani. So, these Tinganta Rupani means actual verbs. Next to that is Kridanta Rupani. Click that. They haven't uploaded yet. These are not verbs technically, but they function like verbs. So if you go to Tinganta Rupani again, you see Lat Lakar. Sailaja Bhagini, Lat Lakar ityukte kim?
Lat Lakar shabdah Tinganta Padani asti santi.
Lat Lakar ityukte kim?
Lat Lakar is present tense.
Vartamane.
Vartamanakala Lat is a rupam for Vartamanakala.
Ityukte Lat ityukte Vartamanakale iti. Means present tense.
Okay.
Bhavati hai. Bhavati ityukte hai. Ramaha bhavati. Vrikshaha bhavati. Vrishtihi bhavati. पानी गिर रहा है. भवति देन भवतः डुअल केस. भवन्ति बहुवचन. देन भवसि यदि त्वम् अस्ति. इफ यू आर यूजिंग द वर्ड टू देन यू विल यूज भवसि नॉट अदरवाइज. एंड भवामि इफ आई एम यूजिंग आई एम द डूअर देन भवामि अहम् भवामि. Like that.
I have to do a lot of homework.
No, I'm just giving you an override. Yes. So, Lat ityukte Vartamane. This is the first form that we teach. That we learn. Lat. So, when you see a dhatu, you say, oh, Bhu Bhavati. Immediately, you say, Bhu Bhavati. This is how you should remember it. And even better than that, Bhu Sattayam Bhavati. This thing should just go in your head like a phrase. Sit in your mind. And when I was with Mataji in Bilaspur this time, I noticed what the students were doing in their daily practice. And these students would go through each gana. So there are Bhuadi gana. This is called, also you see the number 1 is there, Bhagini, in front of Bhu, 01. This number 1 means there are 10 categories of verbs. 10 blocks of verbs, 10 groups of verbs. This is the first group. First group has the largest number of dhatus. Largest number of dhatus. Then the other ganas have very, very few dhatus, relatively. Very, very few. Some only have 20. some have like 50, some have like 70, you know. So these students every morning, they say they would go through all the smaller ganas. So for example, today they'll do krayadi gana. It's one of the ganas. It's the ninth gana. They'll say all the verbs in that. So they'll say it like this: bhu sattayam bhavati, then next verb, then next verb, then next verb. So by doing all the verbs in all the other ganas, all the remaining ganas, now they know, if I have not done this in my morning practice, this must be bhuadi gana. That's how they remember bhuadi gana. But every day they say it. It's kind of an interesting practice. So lat is the main go-to. This rupa bhavati is the main go-to. As soon as you know bhu, you know bhavati. Now below that is lit. Lit is another tense. Lut. Keep going down. Scroll down. Lut. Lut is another tense. Lut. Yeah. Lut is future. Lut. Bhavishyati. This is future tense. Commonly taught also second. Then lot. Below that lot is the one what we talk about. Agya. Bhavatu. Bhavatat. So you see this tat. See, this ends with a halanta. You cannot just assume all the ending ones like that or like that. See what I'm saying?
So if lot is what? Lot, lakar is present tense?
Huh?
This no, lot,
lot is agya, request.
Okay.
The request. Lot. So therefore, they are not only tenses, they are tenses and moods, because English doesn't know how to deal with this lakara system. They don't have a lakara system. For them, it's very simple. Past, future, present.
Yeah, that's right.
These things, all of life is included in that, and everything is in the last 2,000 years. End of story. But in this, so lakara means it's the a way to handle an action. So in English, they don't know what to call it. So they call it moods and tenses. I mean, I don't think agya is a mood, but whatever. Grammatically, they don't know what to do. Anyway, the reason I'm showing this is, see, bhavatat. Bhavatat. See, it ends with halanta. So don't get confused that, oh, if it is ending with this, it must be something, something. All kinds of options are open. And below that, lung is there. Lung is bhutakal. Abhavat means happened. Lung lakar means past tense. It happened. Ramaha abhavat. Ram happened. For example. Then vidhi ling is very much like lot. See, bhavet, again it ends with halanta. Vidhi ling. Bhavet. See it? Which you see vidhi ling?
Yeah, I did. I'm following you.
Then below that, ashir ling. This is the word used for giving ashirvad.
Oh, okay.
So when you read mantras or when you go to gurus or when you are given ashirvad, these are the ones used in the literature. So bhavan sukhino bhavantu, for example, they'll say lot. See, go to lot, you'll see lot at the bahuvachana. Sarve bhavantu, bhavantu is there. Then in Ashirvad, this is specially for Ashirvad. A whole grammar exists only for Ashirvad. Imagine the importance of Ashirvad. One whole grammar exists. Then below that, Lung is there. So many things are there. Lung is there. That's the last one. So these, all the words in this Ashtadhyayi.com at Tinganta Rupani are all, they all fit the definition of a verb in Sanskrit.
Okay.
Then Kridanta don't. They haven't fit that in for, I don't know, maybe let's try another but. I don't know if they have any for but. But Hastiche, do they have Kridanta? No, not yet loaded. So maybe they are starting to load some. I started to notice they are starting to load some. But it's an incredible piece of work they have created in ashtadhyayi.com. This is the original. They follow the original Panini Dhatu part. They don't follow anybody else.
Okay.
So this is a very, very important website that you should start to just spend time.
Yeah, I'll do that.
अस्तु अन्य कोऽपि प्रश्नः अस्ति वा अस्तु अन्तिमशान्तिपाठः कोऽपि वक्तुम् इच्छति वा अद्य कविता भगिनी वाट् इस् द डे टुडे
महासूद् सिक्स् षष्टि
हा षष्टि आज कौन सी पूजा होती है
सॉरी मुझसे कह रहे हैं आप
हाँ आई एम जस्ट वंडरिंग आज कोई खास दिन है क्या
आज नहीं है पगनी कल तो रथ सप्तमी है
कल कौन सा है
रथ सप्तमी सूर्य भगवान का जन्मदिन होता है रथ सप्तमी
सूर्य भगवान का जन्मदिन देन वी शुड
पूजा यस पगनी वी डू दिस
सूर्य नमस्कार
क्षीरानम हाँ सूर्य नमस्कार एंड
भगिनी यू से इट पूजा यू से योर सूर्य भगवान मंत्र राइट नाउ क्विकली लेट मी क्लोज
यस भगिनी आ यस आई हैव इट्स लाइक यू नो आदित्य हृदयम नो भगिनी
नो आई डोंट नो
There are like 7 prayers in Aditya Hridayam at end. So I'll just say those. Because Aditya Hridayam, it takes 5-6 minutes.
I'm extremely sorry. I've got another call from 8:30. Can I just...
नमस्कार भगिनि
धन्यवादः नमस्कार क्षम्यताम्
भगिनि ऐ थिङ्क् इट् विस् इट्स् नाट् देर् इन् द नेक् ऐ हाव् टु गेट् मै बुक् एक्चुलि
लेट् मी सिङ्ग् द
बिकास् आदित्य
लेट् मी सिङ्ग्
सूर्य नमस्कार
देट् ऐ केन् सिङ्ग् अस्तु ॐ ह्रामेत्राय नमः ॐ ह्रीं रवये नमः ॐ ह्रूं सूर्याय नमः ॐ ह्रां भानवे नमः ॐ ह्रां खगाय नमः ॐ ह्रः पूष्णे नमः ॐ ह्रां हिरण्यगर्भाय नमः ॐ ह्रीं मरिचये नमः ॐ ह्रूं आदित्याय नमः ॐ ह्रां सवित्रे नमः ॐ ह्रां अर्काय नमः ॐ ह्रः भास्कराय नमः ॐ शान्ति 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 श्रीगुरुभ्यो नमः हरिः ॐ सर्वं कृष्णार्पणमस्तु धन्यवादः सर्वेभ्यः नमस्कारः
धन्यवादः
भगिनि
भगिनि एकः प्रार्थना अस्ति केन् यु शेर् युर् एक्स्पीरियन्सस् दट् यु हेड् वित् माताजी अण्ड् यु नो all the little experiences that you noted there, how the students do Abhyasa and all that, it seems very interesting.
Very interesting. I'll talk about it next class. Let's each class you ask me, so today I gave you one prakriya, for example. Like that, I'll give you other prakriyas that they do. Very, very, each class you ask me, I'll give you one detail.
Okay, Bajra.
It's a good question, actually. Very good. That's why I go there for that inspiration, because it helps me see how I should focus my study, you know, which way to go. Because they know the Pathati.
Who is this?
This is Mataji. Mataji Pushpa Dikshit. She lives in Bilaspur in Chhattisgarh. Mm. and in she's from Jabalpur, which is my father's hometown. She actually studied in the school of my dadaji. My dadaji was principal, my father's father.
Okay.
In that school, Hitkarni school, where Papa also went to school, she also studied there only. And then she got married, and now she's been in Bilaspur for all these years. She is a Sanskrit scholar, and she, you know, also, you know, what should I say, broke her head on figuring out what is perfect about Sanskrit. Nothing was perfect about Sanskrit, the way it is taught. Even now, the way it is taught, there is nothing perfect about it. And yet it is called Samskrita, which means perfectly put together. So she was very, very confused, just like Panini was. Panini had the same problem. When he went to college, he realized Sanskrit is a big mess. So what is going on? Why is this called Sanskrit? There is nothing Sanskrit about Sanskrit. So he went into meditation and he came out with this Vyakarana, which is completely perfect. So he actually, nobody had figured it out. That's why. It had been figured out, then forgotten. So he figured out the grammar and put it out there for you. And this is the grammar we are studying. Then again it was forgotten. After Panini, he wrote it. Ashtadhyayi is his grantha, which is considered in the world today as the only grantha on the planet which is so completely dense and so completely perfect and has yet, till date, no mistakes or no additions, no addendums, no, it needs nothing. It's completely perfect and is the smallest, thinnest book with the entire Vyakarana. But that, it is so condensed, it is so amazing that to study it, it takes some effort. People forget that. All they want is to, they want to be called as scholars, just like today's PhD people. I know, I'm a PhD myself. You know, you study a small something and you become a PhD, which means you are a scholar of anthropology. I am supposed to be a master of anthropology. Ayo, nothing like it. But this is the scale. So people want the name more than they want knowledge. So thousands of years, all this was again forgotten. Now Mataji goes to college and she's saying, what is this? What is this? So she sits down and starts to refigure it out. Then she sits down with Panini, Ashtadhyayi and understands the perfection in it. And she has then rewritten all of these Panini Vyakarana style in very simple Hindi books.
Some
35 books she has.
Oh.
But they are all perfect. Like the grammar is Panini grammar, which she has revived.
Hmm.
And in that...
What is the book? Can you share the name of the book?
It's just called Ashtadhyayi. I mean, there are so many books. One is, I don't know, do you read Hindi?
Yes, I do.
So one is Shigra Bodha. I'll send the... Have I sent photos, Sudha Bhagini? I probably have. I'll send you two photos of two very
big. Yeah.
One is set of volume of 5 or 6 books. And mm-hmm. one is just condensed everything, which is called Shigra Bodha Vyakaranam.
Mm-hmm.
I'll send you the photos in WhatsApp.
I think I have it, Bhagini.
Just share it, Bhagini.
Yeah, I'll share it. Yeah.
And also just Google her and find out Pushpa Dikshit.
Bhagini, please share it in the group, Bhagini. Sudha Bhagini.
Amazing work. And in her house in Bilaspur, which happens to be my hometown actually. So I have been going to see her, you know, last few years since I got this fever of Sanskrit. So there she has a very small house. And in that one portion of it, half of the portion, she has made into a sort of a hostel.
Oh, okay.
For students, and they all come and live for free in her small kitchen. They sometimes are cooking for 30 people daily. They live there. So she is an amazing human who has just given so much knowledge and so much love to all of these students. Yeah. So you can go and live there, and it's not easy at all by any means. I'll tell you, each class I'll tell you. There is nothing easy about it. Zero.
Yeah, I can understand. There must be the two. It's kind of a Gurukula system, right?
Gurukula, but also many other things are going on because there's no established Gurukul anymore, na?
Yeah,
students aren't up for it. Students aren't ready, actually. That's the problem.
Hmm.
We are raised in the way we are raised, and we don't understand the amount of dedication and respect that Shishyas had for Gurus. I mean, for them, they were truly parents. They never suspected, they never had all these other issues going on. So in our mind, we are never fully satisfied. We are always saying, maybe this other school is better. Maybe this other book is better. You know, this is how we have been raised. But if you grow up in a Gurukul system, you just fully dedicate and later on you figure out what is right or wrong. Right now, I am here to learn what you have to teach. Let me fully dedicatedly learn. That aspect our, us students don't have. That is why the struggle is there. And that is what she finds very hard to deal with also. People will come, she said, they learn for 1 year, 2 years, I put so much energy into them, suddenly they fall in love and gone. Suddenly they are like, oh, Mataji said something bad to me, I'm out of here. So this kind of resilience, this kind of dedication is not there. So she's a little bit unhappy about not having good students, that's the thing. But anyway. Yeah, she's amazing, please Google her.
Yeah, thank you, Bhagini.
अस्तु अन्य कोऽपि प्रश्नः अस्तु नमस्कारः धन्यवादः पापाजी प्रणाम
धन्यवादः भगिनी
धन्यवादः
धन्यवादः भगिनी